ஓகே மேடம், விசிபிலி எமர்ஜென்சி சார். ஹலோ, அஸ்ஸலாமு
அலைக்கும் சார். வெரி மச் கேம் எல்ல டா
பார்த்தோம் நம்ம சார்.
ஓ தப்பார்த்தோ போ நம்ம சார். எங்க ஸ்ரீ அடிஸ் அபா துபாய் பக்கம் ஒரு சைனா நேரு நெக்ஸ்ட் மே தான் எனக்கு
நினைப்பல்லுக்கு ஃப்ளைட் ஆகும் பெட்டர் மச் வச்சாலும்
እስቲ ቀን ገሩኝና በዛ ቀን ቼክ ላድርግልዎት። ከሚቀጥለው ሳምንት መቼ ነው ከዚህ መሄድ የሚፈልጉት?
አንድ ወር በኋላ።
ከአንድ ወር በኋላ? እሺ፣ ዱባይስ ምን ያህል ለመቆየት የሚፈልጉት?
አይ ዱባይ ሳምንት በቂ ነው።
እሺ፣ ከዱባይ ቻይና የትኛው ከተማ ነው የሚሄዱት?
ቤጂንግ።
እሺ መመለሻውት ለመቼ ነው?
መመለሻ ከሁለት ዓመት በኋላ። ሶስት ቀን ትግሬ።
እሺ ቀጥታ የሚመጡት ከቤጂንግ ወይስ?
አዎ ከዛ በኋላ መመለስ ነው ቀጥታ
ወደ አዲስ አበባ ማለት ነው።
አዎ
እሺ በጣም ይቅርታ መስመሌ ስላልጠበቅኩት። ቀጥታ በረራ በኤሚሬትስ አለ። አጠቃላይ 167,451 ብር ነው የሚያስከፍለው።
ኦኬ ከአዲስ አበባ ኤርፖርት ቻይና ከተማት ነው
አይደለም? ከአዲስ አበባ ዱባይ ሄደው ዱባይ አንድ ሳምንት ቆይተው አይደል ያሉኝ ወደ ቤጂንግ ለቤጂንግ ቀጥታ አዲስ አበባ። ስለዚህ ሶስት ከተማ ነው የሚሄዱት ማለት ነው። ከዚህ ዱባይ ሄዳሉ፣ ከዱባይ ቻይና ሄዳሉ፣ ከቻይና አዲስ አበባ ይመጣሉ።
አዎ አዎ
አዎ። አጠቃላይ 167,451 ነው። ሊያዝለው ሊያዝለውት ቦታውን
አይ ቆይ እንትንን በልና አሳውቃለሁ።
እሺ በቃ ይወስኑና ሌላ ቀን የሚመርጡ ካለ ቼክ አድርገው ወስነው ይደውሉልን። እሺ
ቴንክ ዩ ዳ
ይደውሉልን። ሰላም
አለኝ አባት።
እሺ